सप्तमोऽध्यायः अखण्डबोधे निष्ठस्य मरीचिकाकल्पजगत्प्रतीत्याम् नापि वा लाभः नैव दोषः व्यवहारे नैव तस्य रागद्वेषौ इति जनकवचनम्। जनक उवाच मय्यनन्तमहाम्बोधौ विश्वपोतयितस्ततः भ्रमति स्वान्तवातेन न ममास्ति असहिष्णुता। मय्यनन्तमहाम्बोधौ जगद्वीचिः स्वभावतः उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः। मय्यनन्तमहाम्बोधौ विश्वम् नाम विकल्पना अतिशान्तो निराकार एतदेवाहमास्थितः। नात्मा भावेषु नो भावः तत्रानन्ते निरञ्जने इत्यसक्तो अस्पृहशान्त एतदेवाहमस्थितः। अहो चिन्मात्रमेवाहम् इन्द्रजालोपमम् जगत् अतो मम कथम् कुत्र हेयोपादेयकल्पना। ओ